एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। कोरोना संक्रमण निरोधन नियन्त्रण सम्बद्धया उपप्रधान रक्षा मन्त्रिणः संयोजकत्वे संघटितया उच्चस्तरीय समन्वय समित्या संयुक्त प्रयासेनैव कोरोना विषाणुनाम् संक्रमण नियन्त्रणस्य विषयान् कठोरेण क्रियान्वेतुम् निर्णीतम् वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गतदिने उपविष्टेन उपवेशेन रुग्णावस्थायाम् आगताः व्यक्तिः संसर्ग निषेधन कक्षे स्थापयितुम् संकटस्य अप्रवर्धनात्मकानि कार्याणि विधातुम् च निर्णीतम् इति अर्थसञ्चार सूचना प्रविधि मन्त्री डाक्टर युवराज खतिवडा अज्ञापयत्। सर्वकारेण प्रारब्धानां कतिपयानां निर्देशनात्मक विषयाणां क्रियान्वयनस्य क्रमे तेषां प्रभावकारितायाः विलोकनस्य अवस्था सृष्टास्थिति विचार्य समित्या उपचाराय आगताः व्यक्तिः संसर्ग निषेधन कक्षे प्रेषयितुम् पृथक उपचार कक्षे स्थापयितुम् रुग्णानां परीक्षणाय चिकित्सालयेषु प्रेषणस्य क्रमे उद्भूतम् अनुशासनहीन विषयम् कठोरेण क्रियान्वेतुम् च निर्णीतम् इति असौ अवदत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणुनाम् संक्रमण नियन्त्रणस्य प्रयासानां प्रभावकारितायै मन्त्रालयस्य अन्तर्गतानां विभागानां कार्यालयानाञ्च प्रमुखाः कर्मचारिणश्च सार्वजनिकावकाशस्य दिनेष्वपि कार्यं विधातुं निर्दिष्टाः वर्तन्ते। मन्त्रालयेन ह्यः सूचनां प्रकाश्य सार्वजनिकावकाशेऽपि कार्यं विधातुम् उपसचिवाधिकृतस्तरयोः कर्मचारिणः काष्ठमण्डपोपत्यकां न त्यक्तुम् च निर्दिष्टाः सन्ति। मन्त्रालयेन स्वास्थ्यसेवा विभागः औषधि व्यवस्था विभागः आयुर्वेद वैकल्पिक चिकित्सा विभागः आन्तरिक प्रशासन शाखा राष्ट्रिय स्वास्थ्य प्रशिक्षण केन्द्रम् वीर चिकित्सालयः शुक्रराज संक्रामक रोग नियन्त्रण चिकित्सालयः राष्ट्रिय ट्रमा सेन्टर चिकित्सालयः राष्ट्रिय जना स्वास्थ्य प्रयोगशाला चेति अष्टादशेभ्यः कार्यालयेभ्यः पत्रम् सम्प्रेष्य अवकाश दिनेष्वपि कार्यालयेषु उपस्थातुम् उपत्यकाम् न त्यक्तुम् च निर्दिष्टाः वर्तन्ते। नेपाल प्रहरिणा कोरोना विषाणुनाम् विषये सामाजिक सञ्जाल प्रवृत्तिभ्यो विभिन्न माध्यमेभ्यः असत्य प्रचार प्रवाद विस्तारकेषु जनेषु निरीक्षणस्य दण्डनस्य च प्रक्रिया अग्रे वर्धापिता वर्तते। सर्वसाधारणजनेषु त्रास विस्तारणत्वेन सामाजिक सञ्जालस्य माध्यमेन असत्य समाचाराणाम् विभिन्न सामग्रीणां च प्रचार प्रसारयोः प्रारभणम् अनु प्रहरिणा अनुसन्धानस्य दण्डनस्य च प्रक्रिया अग्रे वर्धापिता स्थिति नेपाल प्रहरिणः प्रवक्ता शैलेश कुमार थापा क्षेत्री अज्ञापयत। प्रहरिणा भ्रम प्रवादयोः विस्तारकाः जना विध्यनुसारेण दण्डनस्य सीमायाम् आनीयन्ते इति ज्ञापयन् प्रवक्ता थापा सामाजिक सञ्जाले आगतान् भ्रामक समाचारान् अन्याः सामग्रीणश्च स्वीकर्तुम् न विस्तारयितुम् च सर्वान् अन्वरुणत्। प्रहरी प्रवक्ता थापा काष्ठमण्डपस्य नर्विक चिकित्सालय शिक्षण चिकित्सालय प्रवृत्ति चिकित्सालयेषु कोरोना विषाणुनाम् रुग्णाः प्राप्ताः सन्तीति निगद्य सामाजिक सञ्जाले श्रव्याभिलेखनम् प्रचार्य भ्रमविस्तारणस्य अभियोगे रामेछाप जनपदस्य विंशतिवर्षीयम् विवेक थापा मगर इत्यभिधेयम् भक्तपुरात् निगृह अनुसन्धानम् अग्रे सारितमस्तीति च अबोधयत्। सामाजिक सञ्जाले भ्रामक श्रव्याभिलेखनस्य प्रचारणमनु थापाथलीवर्तिना नर्भिक चिकित्सालयेन इहो विज्ञप्तिम् प्रकाश्य अधुनावधि चिकित्सालये पञ्जीभूते कस्मिन्नपि रुग्णे कोरोना विषाणुनाम् संक्रमणम् प्राप्तम् नास्तीति स्पष्टीकृतम् वर्तते। चिकित्सालयस्य नायब महाप्रबन्धकेन आरपी मैनालीद्वारा प्रकाशितायाम् विज्ञप्तौ जनस्वास्थ्येन सह संयोजिते विषये भ्रमप्रवाद विस्तारकान् जनान् अनुसन्धाय दण्डयितुमपि अभियाचितमस्ति। एवमेव कोरोना विषाणुनाम् विरुद्धे सेनया कीटनाशकौषधम् विकीर्यमाणमस्तीति विषयके सामाजिक सञ्जाले प्रचारिते प्रवादे सत्यता नास्तीति नेपाली सेनया ज्ञापितम् वर्तते। नेपाली सेनायाः प्रवक्ता विज्ञानदेव पाण्डे औषधम् विक्रियमाणमस्तीति निगद्य सामाजिक सञ्जाले विस्तारिते प्रवादे सत्यता नास्तीति स्पष्टीकृत्य प्रवादम् न विश्वस्तुम् अन्वरुणत्। वर्तमानायाम् संवेदनशीलावस्थायाम् भ्रामकान् असत्यान् कपोल कल्पितान् च समाचारान् न विश्वस्तुम् नेपाली सेनया सर्वे अनुरुद्धाः सन्ति। नेपाल सर्वकारेण उद्घोषितम् प्रतिबन्धम् उल्लङ्घ्य वैदेशिक विमान संस्थानैः चतुष्षष्टि नेपालिनः काष्ठमण्डपे आनीताः सन्ति। अध्यागमन विभागस्य अनुसारेण थाई एयरवेज विमानेन एयर इण्डिया विमानेन च चतुष्षष्टिः नेपालिनः त्रिभुवनान्तर राष्ट्रिय विमानस्थले आनीताः वर्तन्ते। आनीताः जनाः खरिपाटी स्थानस्य नेपाल विद्युत प्राधिकरणस्य प्रशिक्षण केन्द्र स्थिते संसर्ग निषेधन कक्षे प्रेषिताः सन्तीति अध्यागमन विभागस्य महानिर्देशकः ईश्वरराज पौडेलः अज्ञापयत्। दुवै कतार प्रवृत्तिषु देशेषु स्थिताः नेपालिनः अन्यत्र पारगमन पथात् निर्माय आगताः सन्ति। कोरोना विषाणुनाम् संक्रमणात् सावधानतायै स्वस्वमवासरात् पशुपतो विशेष पूजा न करिष्यते इति पशुपति क्षेत्र विकास कोषेण ज्ञापितम् वर्तते। भक्तजनैः मनकांक्षाम् पूरयितुम् विधीयमाना पूजा स्वस्वमवासरात् न करिष्यते इति कोषस्य कार्यकारी निर्देशकः डाक्टर घनश्याम खतिवडा अज्ञापयत्। पशुपतौ दर्शनाय आगतानां भक्तजनानां कृते त्रिमीटरमितात् दूरात् दर्शनस्य व्यवस्था विहिता वर्तते। पशुपतौ अनिवार्य रूपेण मुखपट्टिकां धारयित्वा आगन्तुमपि सर्वे भक्तजनाः कोषेण आहूताः वर्तन्ते। आविश्वं प्रसृतस्य कोरोना विषाणुनाम् संक्रमणस्य महामार्याः रक्षितुम् खोटाङ जनपदस्य धार्मिकस्थलम् हलेसी मन्दिरम् अनिश्चितकालाय पिधापितम् वर्तते। दैनिकम् आन्तरिकाणाम् बाह्यानाम् च पर्यटकानाम् विश्वप्रसिद्धम् सम्मर्दस्थलम् हिन्दू बौद्ध किरात धर्मावलम्बिनाम् संगमस्थलञ्च हलेसी मन्दिरम् गतदिनात् अनिश्चितकालाय पिधापितमस्तीति मन्दिर व्यवस्थापन समित्या ज्ञापितमस्ति। नेपाल पत्रकार महासंघेन कोविड 19 विषाणुनाम् संकटम् ध्यात्वा संचारकर्मिभ्यः स्वनिवासादेव कार्यसम्पादनस्य व्यवस्थाम् विधातुम् संचार प्रतिष्ठानम् अनुरुद्धम् वर्तते। गतदिने काष्ठमण्डपे उपविष्टेन महासंघस्य केन्द्रीय समितेः उपवेशेन एवम् अनुरोद्धुम् निर्णीतम् इति महासंघस्य महासचिवः रमेश विष्टः अज्ञापयत्।